कंचित कालम उमा महेश भवतः पादरविंदार्चनैः कंचित ध्यान समाधिभिश्च नतिभिः कंचित कथा कर्णनैः कंचित कंचिदवेक्षणैश्च नुतिभिः कंचित दशाम् ईदृशी यप्राप्नोति मुदा त्वदर्पितमना जीवन समुक्तः खलु बाणत्वं वृषभत्वं अर्धवपुषा भार्यात्वं आर्यापते गोणित्वं सखिता मृदंगवहता चैत्यादि रूपं दधौ त्वत्पादेन यन्नार्पणं च कृतवान् त्वद्देह भागो हरिः पूज्यात् पूज्यतरस एव हि न चेत् को वा तदन्योऽधिकः जनन मृत्युतानां सेवया देवतानां न भवति सुखलेशः संशयो नास्ति तत्र अजनि अमृतरूपं साम्बमीशं भजन्ते यैः परमसौख्यं ते हि धन्या लभन्ते शिव तव परिचर्या सन्निधानाय गौर्या भव मम गुणधुर्यां बुद्धिकन्यां प्रदास्ये सकल भुवन बल्भो सच्चिदानन्द सिन्धो सदय हृदय गेहे सर्वदा संवसत्वं जलधिमथन दक्षो नैव पाताल भेदी न च वन मृगयायां नैव लुब्ध प्रवीणः आशन कुसुम भूष वस्त्रमुख्यं सपर्यां कथय कथमहं ते कल्पयानिन्दुमौले पूजाद्रव्य समृद्धयो विरचिताः पूजां कथं कुर्महे पक्षित्वं न च वाकिटित्वम् अपि न प्राप्तं मया दुर्लभं जाने मस्तकम् अङ्घ्रिपल्लवम् उमा जानेन तेऽहं विभो न ज्ञातं हि पितामहेन हरिणा तत्त्वेन तद्रूपिणा अशनं गरलं पणीकलापः वसनं चर्म च वाहनं महोक्षः मम दास्यसि किं किमस्ति शम्भो तव पादाम्बुज भक्तिमेव देहि यदा कृताम्बो निधि सेतुबन्धनः करस्थलादः कृतपर्वताधिपः भवानि ते लङ्घित पद्मसम्भवः तदा शिवार्चा स्तव भवनक्षमः नतिभिर्नुतिभिः त्वमीश पूजा विधिभिर्ध्यान समाधिभिर्न तुष्टः धनुषा मुसलेन चाश्मभिर्वा मदते प्रीतिकरं तथा करोमि वचसा चरितं वदामि शम्भोः अहमुद्योग विधासुते अप्रसक्तः मनसा कृतिं ईश्वरस्य सेवे शिरसा चैव सदाशिवं नमामि।